निर्वाणशर्तम् मनोबुद्ध्यहङ्कारचित्तादीनाम् न श्रोत्रम् न जिह्वा न च घ्राणनेत्रे न च व्योम भूमिर्न तेजो न वायुः चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशाः न वा पाणिपादो न चोपस्तपायुः चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव माचर्यभावः न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् न पुण्यम् न पापम् न सौख्यम् न दुःखम् न मन्त्रो न सिद्धम् न वेदा न यज्ञाः अहम् भोजनम् नैव भोज्यम् न भोक्ताः चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् न मृत्युर्न शङ्खा न मे जातिभेदः पिता नैव मे नैव माता च जन्म न बन्धुर्न मित्रम् गुरुर्नैव शिष्यः चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् अहम् निर्विकल्पो निराकाररूपः विभुत्वा च सर्वत्र सर्वेन्द्रियाणाम् न चासङ्गतम् नैव मुक्तिर्न मेयः चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम् चिदानन्दरूपस्तिवोऽहम् शिवोऽहम्।